कृष्णैव गतिर्मम म्लेच्छाक्रान्तेषु देशेषु पापैकनिलयेषु च सत्पीडाव्यग्रलोकेषु कृष्णैव गतिर्मम गङ्गादितीर्थवरेषु दुष्टैरेवावृतेष्विह तिरोहितादिदैवेषु कृष्णैव गतिर्मम अहङ्कारविमूढेषु सत्तु पापानुवर्तिषु लाभपूजार्थयत्नेषु कृष्णैव गतिर्मम अपरिज्ञाननष्टेषु मन्त्रेष्वव्रतयोगिषु तिरोहितार्थदेवेषु कृष्णैव गतिर्मम नानावादविनेष्टेषु सर्वकर्मव्रतादिषु पाषण्डैकप्रयत्नेषु कृष्णैव गतिर्मम अजामिलादिदोषाणां नाशकोऽनुभवे स्थितः ज्ञापिताखिलमाहात्म्यः कृष्णैव गतिर्मम प्राकृताः सकला देवा गणितानन्दकन्द्रुहत् पूर्णानन्दो हरिस्तस्मात् कृष्णैव गतिर्मम विवेकधैर्यभक्त्यादिरहितस्य विशेषता पापासक्तस्य दिनस्य कृष्णैव गतिर्मम सर्वसामर्थ्यसहितः सर्वत्रैवाखिलार्थकृत् शरण्यस्थः समुद्धारं कृष्णं विज्ञापयाम्यहम् कृष्णाश्रयमिदं स्तोत्रं यः पठेत कृष्णसन्निधौ तस्याश्रयो भवेत् कृष्ण इति श्रीवल्लभो प्रवृत्तिः।